कीर्तिगुं भवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिः वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूव ते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया या ते रुद्रशिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहिगुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचददि वक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम्बयन् सर्वा सयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेणैमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराज्ञयोर्जाम् याश्च देहस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येशव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूव ते धनुः तयास्मान् विश्वतस्त्वम यक्ष्मया परिभुज नमस्ते अस्त्वायुधाय नाततय विष्णवे उभाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् च पदये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय कृषीमते पतीनाम् पतये नमो नमो बब्लुषाय विव्याधिने नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तताविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्थीनाम् पतये नमो नम कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वंशते परिवंशते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो शिवद्भ्यो रक्तम् चरद्भ्यः प्रकृन्दानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो वेद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्ते भ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम् हदेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो प्रातेभ्यो प्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपतेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपदेभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीरुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाधिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च बुद्धेयाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शौराय चाववृन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्णवे च प्रवृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः श्रोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेध्याय च विद्युत्याय च नमः इन्द्रियाय च तप्त्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तेत्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रचरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो कोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पारुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्घ्याय च सोर्घ्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागु हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धजस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मारोमो येषाम् किञ्च नाममत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रवरामहे मदिम् यदा नश्यमसद्विपदे च दुष्पदे विश्वम् पुष्टङ्ग्रामे अस्मिन्ननादुरम् मृडानो रुद्रोदनो मयस्कृते क्षयद्वीराय नमसा विधेमते यच्छम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानत्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभाविदो वदेर्हविष्मन्तो नमसा विधेमते आरात्ते गोग्न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षाजनो अलि च देव ब्रूह्यदा जनः शर्म यच्च द्विबर्हाः सुहिश्रुतम् गत्त स धन्युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्मृणक्तु परित्वेषस्य दुर्मतिरगायोः अवस्थिरा मगवद्भ्यस्तनुष्वमीरुस्तोकाय तनयाय मृडया मीरुष्टमशिवदमशिवो नः सुमना भव परमे वृक्ष आयुधन्निदाय कृत्य वसान आचर पिनाकम् बिभ्रदागहि विगीर्ण विलोलित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुस्तव हेतयः तासामीशानो भगव पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्याम् तेषागुम् सहस्रयोजने वदन्वालि तन्मसे अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि नीलग्रीवाश्रीकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रीकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विवेद्यन्ति पात्रेषु विभतो जनान् ये पताम्पदिरक्षय ऐलभृदाय व्युदः ये तीर्थानि प्रचरन्ति शुकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुंसहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदिचेर्दशो द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यस्य नो द्वेष्टितम् भोजम् वेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सुय ओषधीषु यो रुद्रो विश्वा भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरधिरुद्रोमा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु यस्विश्वसुदन्वायो विश्वस्य क्षयति मे रजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभे सजोयगुम् शिवाभिवर्षनः ॐ शान्ति शान्ति शान्तिः ॐ अग्नाविष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च मादितम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोदश्च मे सहस्रम आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्छ मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौ मनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे अभयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्धिश्च मे स्वपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भोजश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे उद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्न्यश्च म आवश्च मे विरुधश्च म ओषधयश्च मे कृष्टपक्ष्यं च मे कृष्टपक्ष्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेष्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंशश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतेजाश्च मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदश्च मे धिष्णुजाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवने च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृक्ष म आधवनीयश्च म आग्नेर्धं च मे हविर्धारं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पजताश्च मे वभृदश्च मे स्वराकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सोजश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेरङ्गुलयोर्दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रजन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च मवुक्षा च मे वशा च मृषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पतामात्मा यज्ञेन कल्पता यज्ञो यज्ञेन कल्पता एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयो विगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे ष्ठाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षट्त्रिगुं ंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वारश्च प्रसवश्चाभिदश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियस्यान्त्यायनस्यान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्तामदानि सगुंसिषद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्याचगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाले पितरो नु मदन्तु।
ॐ शान्ति शान्ति शान्तिः। ॐ
तत्संयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये देवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शरन्नो अस्तु द्विपदे शं चतुष्पदे। ॐ शान्ति शान्ति शान्तिः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्येनातिरोहते एतावानस्य महिमा अतो ज्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वौ दैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशरानशरे अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्रम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्रन् पुरुषम् पशुम् तर्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वभूतः सम्भृतम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्रये तस्माद्यज्ञात् सर्वभूतः ऋजः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भजादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यधदुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासेत् बाहूराजन्यकृतः ऊरुतरस्य यद्वैष्यः पद्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवं विद्वानमृत इह भवते नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकं महिमानः सचन्ते यत्र पूर्वे साद्या सन्ति देवाः अद्य सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधे तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् तमेवं विद्वानमृत इह भवते नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मणे ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणीमहे गातयज्ञाय गातयज्ञपतये देवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिघातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा त्रिमेहन्मे कर्णेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषा विस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुयमस्य जम्भयोः आदधामि तथा हि तत् खन्फन्वसे ॐ शान्ति शान्ति शान्तिः ॐ नासदासीन् तदानीम् नासीद्रजो नो व्योमा परो यत् किमावरीवक्कुहकस्य शर्मण् अम्भः किमासीद्गहरङ्गभीरम् न मृत्युरमृतम् तर्हिणा रात्रिया अह्न आसीत् प्रकेतः आनीतवातग्रस्वधया तदेकम् तस्माद्धान्यनपरः किञ्चनास तम आसीत् तव सा गूढमग्रे प्रकेतम् सलिलगुम् सर्वमा इदम् तुच्छेनाव्यभिहितम् यदासीत् तमसस्तन्महिना जायतैकम् कामस्तदग्रे समवर्ततासि मनसोरेत प्रथमम् यदासीत् सतो बन्धुमसति निरविन्दन् हृदि प्रतीश्या कवयो मनीषा तिरश्चीनो विधदो रश्मिरेषा अधस्विदासि नृपरिस्विदासीत् रेतोधासन्महिमान आसन् स्वधा अवस्तात् प्रयति परस्तात् को अद्धा वेदक इह प्रवोचत् कुत आजाता कुतय्यम् विसृष्टिः अर्वाद्देवा अस्य विसर्जनाय अथा को वेदयत आबभूव इयम् विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न यो अस्याध्यक्ष परमे व्योमन् सो अङ्गवेद यदि वा न वेद ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः भृगुर्वैवारुणिः वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तस्मा एतत्प्रोवाच अन्नम् प्राणम् चक्षुश्रोत्रम् मनोवाचमिति तगुम् होवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्रभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति सतपोतप्यत सतपस्तत्त्वा अन्नम् ब्रह्मेति व्यजानात् अन्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नम् प्रयन्त्यभिसंविशन्तेति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम् होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यत सतपस्तत्त्वा प्राणो ब्रह्मेति व्यजानात् प्राणाद्येव खल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ते प्राणम् प्रयन्त्यभिसंविशन्तेति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम् होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यत सतपस्तत्त्वा मनो ब्रह्मेति व्यजानात् मनसो ह्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ते मनःप्रयञ्जभिसंविशन्ति ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधेः भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति स तपो तप्यत सतपस्तत्त्वा विज्ञानम् ब्रह्मेति व्यजानात् विज्ञानाद्येव खल्विमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ते विज्ञानम् प्रयञ्जभिसंविशन्ति ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधेः भगवो ब्रह्मेति तगुम् होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति स तपो तप्यत सतपस्तत्त्वा आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ते आनन्दम् प्रयञ्जभिसंविशन्ति ते सैषा भार्गवे वारुणे विद्या परमे व्योमन्प्रतिष्ठिता य एवम् वेद प्रतितिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसेन महान् कीर्त्या अन्नम् न निन्द्यात् तद्व्रतम् प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणप्रतिष्ठितः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतितिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वक्षसेन महान् कीर्त्या अन्नम् न परिचक्षीत तद्व्रतम् आपो वा अन्नम् ज्योतिरन्नादम् अप्सु ज्योतिप्रतिष्ठितम् ज्योतिष्याव प्रतिष्ठिताः तदेतदन्नमन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेद प्रतितिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वक्षसेन महान् कीर्त्या अन्नम् बहुकुर्वीत तद्व्रतम् पृथिवी वा अन्नम् आकाशोन्नादः पृथिव्यामाकाशप्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता तदेतदन्नमन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेद प्रतितिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वक्षसेन महान् कीर्त्या न कञ्चन वसतौ प्रत्याचक्षीता तद्व्रतम् तस्माध्ययाकया च विधया बह्वन्नम् प्राप्नुयात् अराज्यस्मा अन्नमित्या चक्षते एतद्वै मुखतो अन्नगुम्राद्धम् मुखतोऽस्मा अन्नगुम्राध्यते एतद्वै मध्यतो अन्नगुम्राद्धम् मध्यतोऽस्मान्नगुम् राज्यते एतद्वान्ततोऽन्नगुम् राद्धम् अन्ततोऽस्मान्नगुम् राज्यते य एवम् वेदा क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषे समाज्ञाः अथ दैवेः तृप्तिरिति वृष्टौ बलमिति विद्युते यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्ते सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीता प्रतिष्ठावान् भवति तन्मह इत्युपासीता महान् भवति तन्मन इत्युपासीता मानवान् भवति तन्नम इत्युपासीता नम्यन्ते स्मै कामाः तद्ब्रह्मेत्युपासीता ब्रह्मवान् भवति तद्ब्रह्मण परिमल इत्युपासीता पर्येणम् म्रियन्ते द्विषन्तः स पत्नाः पर्ये प्रिया भ्रातृव्याः स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स य एवम् वित् अस्माल्लोकान् प्रेत्या एतमन्नमयमात्मानमुपसङ्क्रम्य एतम् प्राणमयमात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नि कामरूप्यनुसञ्चरन् एतत्सामगायन्नास्ते हा अहमन्नमहमन्नमहमन्नम् अहमन्नादो अहमन्नादो अहमन्नादः अहग्श्लोककृदहग्श्लोककृदहग्श्लोककृद अहमस्मि प्रजमजारिता पूर्वम् देवेभ्यो अमृतस्य न भायि यो मा ददाति सै देव वाः अहमन्नमन्नमदन्तवाग्ने अहम् विश्वम् भुवनमभ्यभवाम् सुवर्णज्योतेः य एवम् वेदा यत्युपनिषत् सहनावतु सहनौ भुनत्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषामहै ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोर्परमम् पदगम् सदा पश्यन्ति सूलयः दिवेव चक्षुरादतम् तद्विप्रासो विपन्यवो जाग्रवागुम् तत्समिन्धते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि tanno Vishnu prachodayat. Tat purushaya vidmahe mahadevaya dhimahi tanno Rudra prachodayat. Om Sai Ishwaraya vidmahe satyadevaya dhimahi tanna sarva prachodayat. Hamsa hamsaya vidmahe parama hamsaya dhimahi tanno hamsa prachodayat. Swasti prajabhya paripalayantam nyayena margena mahirmaheshah gobrahmanebhya shubhamastu nityam samasta lokah sukhino bhavantu. Samasta lokah sukhino bhavantu. Samasta lokah sukhino bhavantu. Oh.